इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः पुनीत त्रिपाठी। अथ वार्ताः। मुख्य निर्वाचनायुक्तः ज्ञानेश कुमारः अवदत् यत् बिहार विधानसभा निर्वाचनस्य दिनांकानां घोषणायाः विषये निर्णयः विचार्य शीघ्रमेव भविष्यति। निर्वाचनायोगस्य ह्यः राज्यस्य द्विदिवसीय समीक्षा यात्रायाः अन्तिमे दिने पटना नगरे प्रसारमाध्यमैः सह वार्तालापं कुर्वन् श्रीकुमारः अवदत् यत् आयोगः राजनैतिकदलैः सह चर्चां कृतवान्, तेषां विचारान् श्रुत्वा मतदानकार्यक्रमस्य अन्तिमनिर्धारणे सर्वेषु पक्षेषु विचारः करिष्यति। श्रीकुमारः अवदत् यत् मतदात्री सूच्यां संशोधनं विधिपूर्वकम् उचितमस्ति। विदेशमन्त्री डॉ एस जयशंकरः अवदत् यत् अद्यत्वेषु वर्षेषु युद्धस्य स्वरूपेषु मूलभूतपरिवर्तनम् अभवत्। उन्नतशस्त्रैः तथा तन्त्रज्ञानेन निर्मितानां सम्पर्करहितयुद्धाः नूतनयुगस्य विषये सूचयन्ति। ह्यः नवदिल्ल्यां कौटिल्यार्थिक सम्मेलने भाषणं कुर्वन् सः एतत् उक्तवान्। अस्मिन् जटिल परिस्थितौ भारतस्य स्थितिं प्रति डॉ जयशंकरः अवधानं दत्तवान् यत् नवदिल्ल्याः शक्तिः आन्तरिक क्षमता निर्माणे निहिता अस्ति इति।
The nature of weaponry, the nature of war has today fundamentally changed. We have seen that in multiple conflicts, starting with Azerbaijan-Armenia, Ukraine-Russia, Israel-Iran. So contactless war, often with standoff weapons, but which can have a very impactful, sometimes even a decisive outcome. These are today the characteristics of this landscape of these turbulent times.
केन्द्रीय वाणिज्योद्योग मन्त्री पीयूष गोयलः अद्यारभ्य कतर देशस्य दोहा नगरे द्विदिवसीय यात्रायां भविष्यति। प्रवासावधौ श्री गोयलः स्वकीयेन समकक्षीयेण शेख फैजल बिन थानी बिन फैजल अल थानी इत्यनेन सह कतर भारत संयुक्त वाणिज्य आयोगस्य उपवेशनस्य अध्यक्षः भविष्यति। वाणिज्य उद्योग मन्त्रालयः अवदत् यत् एषा यात्रा कतर देशेन सह भारतस्य व्यापार निवेश सम्बन्धेषु महत्त्वं सूचयति। नागरिकोड्डयन महानिदेशालयः उत्सवकालात् पूर्वं विमानयान शुल्कस्य प्रवृत्तिं समीक्षितवान्। नागरिक उड्डयन मन्त्रालयेन निदेशालयः विमानयान शुल्कस्य निरीक्षणं कर्तुम् आज्ञापितः अस्ति। विशेषतः उत्सवेषु मूल्यवृद्धेः सन्दर्भे समुचितानि उपायानि च कर्तुम्। डीजीसीए इति संस्थया पूर्वमेव विमानसंस्थानां समक्षं प्रकरणमिदं उत्थापितम्। अपि च अधिकावश्यकतां पूरयितुम् अतिरिक्तानि विमानयानानि नियुज्य उत्सवकालस्य कृते विमानक्षमतां वर्धयितुं तान् आदिष्टम्। तस्य प्रतिक्रियारूपेण इंडिगो संस्था द्विचत्वारिंशत् क्षेत्रेषु 30-70% एयर इंडिया एक्सप्रेस च 20 क्षेत्रेषु 87-400%, स्पाइसजेट संस्था च 38 क्षेत्रेषु 44-500% यावत् अधिकानि विमानयानानि चालयति। केन्द्रीय सहकारिता मंत्री अमितशाहः भारतस्य प्रथम सहकारिताधारित संकोचित जैव वायु स्प्रे ड्रायर पोटास ग्रेन्युअल परियोजनायाः उद्घाटनम् अकरोत्। महाराष्ट्रस्य अहिल्यानगर मण्डलस्य कोपरगाम इत्यत्र सहकार महर्षि शंकरराव कोल्हे सहकार शर्करा संयंत्रे इयं परियोजना स्थापिता अस्ति। अस्मिन् अवसरे संयंत्रस्य प्रशंसां कुर्वन् श्रीशाहः सीएनजी तथा पोटाश इत्येतयोः उत्पादनं विपणनं च कृत्वा वित्तीयार्थव्यवस्थायाः लाभान् प्रकाशितवान्। सः अघोषयत् यत् एतादृशानि घटकानि शीघ्रमेव सम्पूर्णे देशे 15 सहकारी शर्करा संयंत्रेषु आरभ्यन्ते। क्रिकेट क्रीडायां ह्यः आईसीसी महिलानाम् एकदिवसीय क्रिकेट विश्व चषक स्पर्धायां भारतेन पाकिस्तान दलम् 88 धावनांकैः पराजितम्। इति वार्ताः।